सर्वेभ्यः नमस्कारः. सिद्धान्तकौमुद्याः हलन्तस्त्रीलिङ्गप्रकरणे प्रथमः पाठः. आगस्ट् मासस्य 20 दिनाङ्कः. येनाक्षरसमं नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सुप्रकारं च प्रणतोऽस्मि मुनित्रयम्. येनाक्षरसमं नायम् अधिगम्यमहेश्वरात् कृत्स्नं मुनित्रयं नमस्कृत्य तदुक्तिः विभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. Starting comedy lessons after a long time, let's say almost, I guess it is 8 months. We stopped at the end of Halanta Pullinga Prakarana. So we completed all Namapada forms, Pullinga forms, both Ajantas and Halantas. So in the Shabda Prakarana, there are just two small bits left, dealing with Halanta Strilingas and Halanta Napumsakalingas. So, the major part of the prakriya of the Halanta Prakarana is covered in the Pullingas actually, just like we have in Ajanta Pullingas. Ajanta Pullinga is a bigger prakarana. Compared to the Ajanta Strilinga and Napumsakalinga, the same holds good here. Halanta Pullinga, starting from Hakara to the end where we deal with Hakara and the Pullingas. So that covers the majority of the prakriya dealing with Halanta. So in Halanta Strilinga and Napumsakalinga, Dikshita takes only those cases where they vary. In a majority of cases, especially in the Halantas, the forms tend to remain the same, whether it is a Pullinga, Strilinga or Napumsakalinga. So, but there are cases where they might vary. So he takes only those cases where there is something special to deal with, or something just as an example of the word. So if you have a Hakaranta, he treats the general word and how it varies from the forms. So starting with the हकारान्तः स्त्रीलिङ्गाः आरभ्यन्ते. प्रथमः शब्दः हकारान्तः स्त्रीलिङ्गः उपानः शब्दः. उपानशब्दस्य निष्पत्तिः उपसर्गः नः बन्धने इति धातुः. कर्मणि कृत् प्रत्ययः विबन्त फार्म् उप एण्ड् नः बन्धने, सो दट् विच् बैण्ड्स् द फीट् is upanah. Upanah shabda se paduka ityartha, means slippers or footwear. Padur upanat stri iti amarakoshe drishyate. Paduka ityarthe upanah shabda nitya strilingah. Upanah iti pratipadikat vibantatvat vipapratyah vibantatvat कृतज्ञ समासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. या प्रातिपदिकात् इत्यधिकारे सौजसमोट् इत्यादिना सूत्रेण प्रथमाविभक्तौ एकवचने विवक्षिते सुप्रत्ययः. बै नौ यू शुड् एक्चुली बी वेरी फेमिलियर् विद् द होल् थिङ्ग्. वी आर् स्क्रिपिङ्ग् अ लाट् इन् द बिगिनिङ्ग् एण्ड् वेन् वी स्टार्ट् डैरेक्ट्लि वित् द सुप्रत्यय, ऐ होप् यू रिमेम्बर् दट् देर् इस् क्वैट् अ बिट् टु बी डन् बिफोर् offending the suffix. You have to define a pratipadika, you have to define vachana, vibhakti, everything. So since we have done so much of it, we are skipping it, but it is always essential to remember what are the steps which come before. How does the pada get the pratipadika samya? How do you define a vibhakti? How do you define a vachana? What is radhikara? It is better to periodically remember all those. So we add supratyaya where ukara gets the itthamya, upadeshayadana nasika itthinaya itthamya, tasyalopaha itilopaha, sakaraha shishyate. And the standard thing we do in any halanta prakriya हल्याभ्यो दीर्घा स्तुतिस्य वृत्तम् हल इत्यनेन हलः परस्य सुप्रत्ययस्य लोपः उपानः इति हकारान्तम् अस्ति. इदानीं किं करणीयम् इति प्रश्नः. इफ् वि रिमेम्बर् द जनरल् प्रक्रिया दट् वि डिड् फार् एनि हकारान्त हकारान्तपुल्लिङ्गेषु किम् आरब्धम्? लिह् शब्देन प्रक्रिया प्रकरणम् आरब्धम्. सो द जनरल् सूत्र फार् एनि हकारान्त वर्ड् इस् होढः. झलि पदान्ते च हस्य ढः भवति. ढकारः आदेशः क्रियते विनवर् इट् इस् फालोड् बै झल् अर् पदान्त. अत्र तु पदान्तत्वमस्ति होढः. सो होढः इत्यनेन ढत्वे कृते तस्य जस्वे जत्वे लिट् लिड् इत्यादीनि रूपाणि हलन्तपुलिङ्गप्रकरणे अधीतानि. लिट् लिड् लिहौ लिहः इत्यादिरीत्या लिहा लिड्भ्यां लिड्भिः. सो होढः इस् अ जनरल् सूत्र. एस् यू केन् सी 8-31 दादेर्धातोर्घः. आन् द अदर् हेण्ड् इफ् दट् हकारान्त आल्सो हेपन्स् टु बि अ धातु बिगिनिङ्ग् वित् दकार. यदि हकारान्तः दकारादिः धातुः तदन्तं प्रातिपदिकमस्ति तदा तु किं भवति? ढत्वं बाधित्वा घत्वं भवति इति उच्यते. घत्वे कृते तस्य जष्ट्वे चत्वे धुक् धुग् धौ धुहः दुहा धुग्भ्यां धुग्भिः. दुह् धातुः दकारादिः हकारान्तः तत्र तु ढत्वं बाधित्वा घत्वं भवति. वा द्रुहमुहष्णुहश्निहाम् एतेषां चतुर्णां धातूनां घत्वं विकल्प्यते. तेन चत्वारि रूपाणि भवन्ति प्रथमैकवचने. ढत्वस्य रूपद्वयं घत्वस्य रूपद्वयं. सो दीस् त्री वर् द जनरल् थिङ्ग्. दिस् इस् वेर् हकारान्त स्टार्ट्स्. यः होढः 8-31 दादेर्धातोर्घः वा द्रुहमुहष्णुहश्निः. नौ वि हेव् उपानः वेर् इट् इस् नः धातु. This is not dakaradi and it is not included in the list. So the general sutra which would actually apply is hodaha. Hodaha itinera dhatve prapte satra punaha nutanam sutra vasti mahodaha. So pandini in the same series. That is why I gave those sutras. You have 8-31, 32-33. The 34th sutra in the same series is mahodaha. But pandini defines a special karya for mahadhatu. नः धातोरेव विशिष्य कार्यमुक्तम् अस्ति. नहः धः कम् इन् द सीरीस् द मीनिङ्ग् विल् बि आब्वियस्. सो इफ् यु रीड् द अष्टाध्यायी इन् दिस् सीरीस् यु डोण्ट् इवन् नीड् द सूत्र. हि स्टेटिङ्ग् इट् वेरि क्लियर्ली. होढः हकारस्य ढकारः भवति. दादेर्धातोर्घः दकारादेः धातोः घः अन्तादेशः भवति. महोधः नः धातोः हकारस्य धकारः आदेशः भवति. वेरि आब्वियस् फलद्वयमस्ति. नहः इति षष्ठी, धः इति प्रथम. झलो झलि इत्यतः झलि इति वर्तते. स्व संयोगाद्योरन्ते च इत्यनेन अन्ते इति वर्तते. होढः इत्यनेन हः इत्यपि वर्तते. सूत्रार्थः नहोहस्य धः स्यात् झलि पदान्ते च. फालोड् बै झल् वर्ण आर् द एण्ड् आफ् अ पद. द हकार आफ् नः धातु इस् रिप्लेस्ड् बै धकार. सो उपानः इत्यस्ति हकारस्य धकारादेशे कृते. धकारस्य झलां जशोन्ते इत्यनेन जष्ट्वं जष्ट्वे कृते दकारः. तस्य वावसाने इत्यनेन चत्वे उपानत् उपानद् इति रूपद्वयं प्रथमैकवचने. द्विवचने तु किमपि नास्ति. उपानः औ उपानहौ उपानहः उपानत् उपानद् उपानहौ उपानहः उपानहम् उपानहौ उपानहः उपानः पुनः उपानः भ्याम् भ्यामादौ फलादौ प्रत्ययपरे पदसंज्ञा अस्ति. केन पदसंज्ञा? So it's a sutra which gives padasamya, then followed by bhyam, bhis, etc. स्वादिशो सर्वनाम स्थाने इति सूत्रेण पदसंज्ञा अस्ति परान्तत्वम् इत्यतः अत्रापि नहोधः इत्यनेन धत्वं भवति उपानधभ्याम् धलां जशन्ते इत्यनेन जष्ट्रे कृते उपानद्भ्याम् उपानद्भिः उपानहे उपानद्भ्याम् उपानद्भ्यः उपानहः उपानद्भ्याम् उपानद्भ्यः उपानहः उपानहोः उपानहाम् उपानहि उपानहोः उपानथ् उपानद्धसु जष्ट्वं भवति ततः खरिच इत्यनेन चत्वे उपानथ् इति रूपम् सो बिकॉज सो फार इन द शब्द प्रकरण शुड ऑल्सो बी एबल टू गेट द फॉर्म्स विदाउट हैविंग द एंटायर प्रक्रिया ओके स्पेशली इन हलंतस द प्रक्रिया इज मिनिमल इफ द प्रत्यय इज अजादि यू हैव औ अस अम औषस ता ने नसी नस ओस आम नी ओस सो प्रक्रिया इज जनरली there is no prakriya. So you just have to join the pratyadika and the pratyaya. So only in halantas that there is a possibility of some sandhi. So you should be able to predict all the forms without any difficulty. So that is the first shabda under hakarantas, which is upanah. Agre ushnih shabdah asti. Hakarantah strilingah. उष्णिः शब्दः सो अयमपि नित्य स्त्रीलिङ्गः छन्दसः नाम उष्णिक् इज अ छन्दस् विच इज यूस्ड् यू हैव मेनी छन्दस् टाइप्स् आफ् छन्दस् विच आर् डिफैन्ड् उष्णिक् इज वन् आफ् दोस् वृत्त सो तस्य निष्पत्तिं दर्शयन्ति दीक्षिताः उत्पूर्वात् उष्णिः प्रीतौ इत्यस्मात् ऋत्विगादिना क्विन् निपातनात् दलोपक्षत्वे क्विनन्तत्वात् कुत्वेन हस्य घः ज्येष्ठत्वे इन् अ सिङ्गल् लैन् हि हेस् कवर्ड् द एण्टैर् प्रक्रिया लीडिङ्ग् टु द प्रथम एकवचन फार्म् किमुच्यते उत्पूर्वात् उष्णिः प्रीतौ इत्यस्मात् उद् इत्युपसर्गः स्निह धातुः उष्णिः प्रीतौ इति धातुः तस्य धात्वादेशस्थः इत्यनेन षकारस्य सकारः भवति तत्सनियोगात् श्रुत्वमपि निवर्तते सो द एक्चुअल् धातु इस् स्निह स्निह्यति इति रूपम् उदुपूर्वात् स्निह धातोः क्विन् प्रत्ययः ऋत्विग् दधृक् सृग्दिगुष्णिगञ्चु युजि कृञ्चाञ्च इति सूत्रम् पूर्वमेव अधीतम् अनन्तपुल्लिङ्गप्रकरणे अथवा उष्णिग् इत्यस्ति सूत्र विच् डिफैन्स् क्विन् प्रत्यय अस्य विशेषः अस्ति सूत्रस्य अयं विशेषः न केवलं प्रत्ययः विधीयते किन्तु शब्दाः निपात्यन्ते सिद्धप्रक्रियस्य निर्देशः निपातनम् निपातन इस् अ प्रोसेस् वेर् पाणिनि गिव्स् अ रेडिमेड् फार्म् जनरल् फार्म् आफ् डिरैविङ्ग् एनि थिङ्ग् इन् व्याकरण देर् इस् अ प्रकृति एण्ड् देर् इस् अ प्रत्यय सो द सूत्र जनरली डिफैन् द प्रत्यय एण्ड् देर् इस् सम् अदर् सूत्र टु डिफैन् अ कार्य विच् देन् हेपन्स् due to the combination of the prakriti and pratyaya. So for example, you have ramadhatuhu. Ramadhatuhu ghai pratyaya vidhiyate. Bhave ityanena ghai. So that sutra just gives the ghai pratyaya and stops there. It does nothing else. So you have ramu and ghai. So there are other sutras then which define a karya. Say there is a sutra which defines adivriddhi. Sorry, there is a upadha vriddhi here. Ata upadhayaha itenena upadha vriddhau ramu iti bhavati. Rama shabdha nishpadyate. But this is a special sutra where ritvik gadhrik sraddhi gushni ganchu iti kunchancha does not just give pin pratyaya. It gives pin pratyaya but it also defines the ready-made form as ushniha. This sutra is not just giving quin pratyaya to the sniha dhatu. Sniha dhatoho quin pratyaya na vidhiyate. Ushniha iti siddha prakriyasya nirdesha hasti. Ayam idam nipatanam iti uchyate. Sarvatra nipatananam idameva karyam. Yadyat karyam anyena shastrena sadhayitum na shakyate. Tatsarvam nipatanena sadhyate. अत एव किमुक्तं पूर्वत्र ऋत्विग इत्यादिना क्विन् निपातनात् दलोपशत्वे. सो बिकॉज इट इज अ निपातना देयर इज आल्सो एडिशनल कार्य विच इज बीइंग अचीव्ड बाय द सेम सूत्र. उद इत्यत्र उपसर्गे दकारः अस्ति, तस्य दकारस्य लोपः भवति. केन सूत्रेण इत्युक्ते अनेनैव सूत्रेण, ऋत्विग् दर्शक् इत्यनेनैव सूत्रेण उपसर्गस्य दकारस्य लोपः क्रियते. अत्र यः सकारः अस्ति, धातोः सकारः, तस्य शब्दोऽपि तेनैव सूत्रेण भवति. सो दट् इस् वै वि से इट् इस् निपातनात् एतानि कार्याणि भवन्ति. सो वि आड् क्विन् प्रत्यय, वि डिलीट् द दकार आफ् द उपसर्ग, वि कन्वर्ट् द सकार आफ् द धातु टु शकार. सो जनरल् एस् अ जनरल् रूल् वेनेवर् देयर् इस् अ निपातन, ओन्ली दोस् कार्यास् विच् केनाट् बि डन् बै अदर् सूत्रस् वि ट्रीट् इट् एस् बीङ्ग् डन् बै निपातन. If there is a karya which can be done by some other sutra, for example, atra kim jatam, dakara lopaha nipatanat, sakarasya shatva api nipatanat. Kintu atra nakara hasti, tatra nakarasya natvam karaniyam, kena kriyate, jitse sutra masti, shtunashtuhu, shakarat paratvena nakarasya sthane, nakaraha, sutrena iva labhyate. So there is a sutra which can convert this nakara to nakara, shtunashtuhu. So in such cases the sutra will apply. So shtunashtuhu ityanenaiva nakarasya sthane nakarah bhavati. Yat karyam kartum, arthata udaharanartham, dakarasya lopam kartum anyat sutram nasti, ataha anenaiva sutrena nipatanatu dalopaha iti uchyate. Evameva sakarasya shakaratva sampadanartham anyat sutram nasti, अत एव निपातनात् षत्वम् इति उच्यते. णत्वं तु निपातनान्न भवति, ष्टुनाष्टुः इति सूत्रेण भवति. सो उष्णिः इत्यस्ति प्रत्ययस्य वकारः, वेरप्रत्ययस्य इत्यनेन वकारस्य लोपे उष्णिः इति प्रातिपदिकम्. क्विन् अपि कृत्, अतः कृतं तत्त्वात् कृतर्थितसमासाश्च इत्यनेन प्रातिपदिकत्वम्. उष्णिः इति हकारान्तं प्रातिपदिकम् इत्यस्त्रीलिङ्गम्. So now, this Ushniha, ityasmātu supratyayah kriyate. Supratyayasya halgyābhyo dīrghāt, sudhisya praktam hal, ityanena lopaha, Ushniha. Vidāni, kvin pratyayasya kuhu. As an apavāda to hodhaha. Again, you had hodhaha. So, an exception to hodhaha is kvin pratyayasya kuhu. Yadi kvin pratyayantaha shabdaha, tarhi, tasya sthāne kutvam bhavati. कुत्वम् इत्युक्ते हकारस्य स्थाने घकारः क्रियते आन्तरतम्यात् उष्णिघ. झलां जशोन्ते इत्यनेन तस्य जस्त्वम् उष्णिग् इति भवति. ततः वावसाने इति सत्त्वम्, देयर इज एन एरर इन द स्लाइड, ए मिस्टेक् आई पुट वापदान्तस्य. द सत्त्व द सूत्र इज वावसाने. The number is correct, 8456, but the sutra is Vavasane. So you have Ushnik. Ushnik, Ushnig. Kuttam, Asiddham. Satyam. There is an objection raised where the kutva pimpratyasya kuhu was asiddha. So just go. This is asiddhattam asti. Jatva drishtya kutvam asiddham. I think we did something about this. Mm-hmm. Well, I looked this up. I think there was something which dealt with this earlier. Okay. Can you please read what the Bala Manorama says? Kimapavadena? Yeah. The last part of it. Huh. No. Kin pratyasya kuhu iti? No. Huh? Shat. Shatva Pavada. Vrashtabhrasya. Yeah. Vrashtabhrasya. Huh? Okay. Huh? Okay, the first thing Bala Manorama Kara says, the question here is jastva, is kutva atitha for jastva? Kutvam asti, kutvam vidhiyate, kain pratyasya kuhu iti sutrena, yattu, ashtamadhyaya dvitiya pade, visheshtitavam sutram. It is the 62nd sutra in the pada, whereas jastva is given by the 39th sutra. So, by purvatra siddham, kutva is asiddha for the jastva. So, the standard rule of Purvatra Siddham, you cannot apply an earlier sutra after applying a later sutra. That is the general trend. You have to apply the earlier sutra first and then you can apply the later. Because the latter sutra is asiddha to the former. Yadi kin pratyasya kuhu iti jastvam prati asiddham, tarhi kim bhavati kutre krute jastvam na pravartate. So we cannot derive the jastva. That is the objection. How are we doing jastva after kutva? So the Bala Manorama Kara offers two suggestion. The first suggestion is, what is it? Asiddhatvam nasti. Right? Can you read this? Ushnik Anchu Yuji Prancha Ancha. In the sutra, the Trig Dadrid, there, this Panini himself says, Ushnig Anchu. Ushnih Anchu. It is Thite, Tatra Kim Kratam, Panini Naiva Jastvam Kratam Asti. Panini has used the Jastva form, Ushnig Anchu Ityatra, Panini Na Jastvam Kratam. So we take that Nirdesha, Panini's Nirdesha itself as a Jnapaka to say that in this case, Vinpratyasya Kuhu is not Asiddha for Jastva. So we do Jastva following Panini's steps. Okay, so because of the Panini and Nirdesha saying Ushnigancu, where he has applied Jastva, after obviously the Kutva will apply there. So Panini himself is showing indirectly that in this particular case, there is no asiddhatva. Asiddhatva does not apply. So nirdeshat, that is one way where we take Panini and Nirdesha as a pramana to say something. So here we take it as the proof that kutva by kvin pratyasya kuhu is not asiddhatu dhanam nishonte. So that is the first samadhana. The second samadhana he gives is he derives a parallel between this and some other form which is given in the Kayata, where they debate which sin pratyasya kuhu is an apavada to what. So they finally establish that it is an apavada to hodhaha. In this case, sin pratyasya kuhu is not, in different cases, sin pratyasya kuhu is a standard sutra which applies to different, all words which end with sin pratyaya. Like you have Ritvik, Dadhrup, Srad, Dig, Pushnik, Anchu, Yuji, Krunchantya. So wherever the word is Hakaranta, as in case of Ushnih, it is an apavada to Kodhaha. And where, say, in cases like Srij, where it is a Chakaranta, it will be an exception to Shatva from Rashtabhrasga, etc. So since it is an apavada to all those sutras, you have Kodhaha, which occurs before Jhalam Jashwante. So being an exception, it will be treated with the same general sutra. Just like we apply Jastva after doing Kodhaha, we also apply Jastva after doing the apavada, which is Kutva, which is the second part of Vadamanona. Okay. So, anything else? Any questions so far? So we move on. So Ushnik, Ushnik, Tirupadvayam, Prathama Vibhaktau Ekavachane, Ushnihau, Ushnihaha, Adhanam Prathyaye Pare, Karyam, Vishishtam Karyam Kimati Bhavati, Ushnihau, Ushnihaha, Ushniham, Ushnihau, Ushnihaha, Ushniha, Ushnig Bhyam, Ushnih Bhyam, Iti Bhavati, Tin Prathyaye Kuhu Ityanena Kutvam, Tataha, Jhalam Jashwante Iti Chastam, Ushnig Bhyam, Ushnig Bhi, Ushnihe, Ushnig Bhyam, Ushnig Bhyaha, Ushnihaha, Ushnig Bhyam, Ushnig Bhyaha, Ushnihaha, Ushnihoho, Ushniham, Ushnihi, Ushnihoho, Ushnikshu, Ushnih, Su, Tataha, Kutvam, Jastvam, Kharita Ittenena Sattvam. So there is a compulsory chakra here. So Ushnik Su Tataha Inkoho Kavargat Paratvena Adesha Pratyayoho Ittenena Sakarasya Shatve Ushniksu. So there are additional things to be done there. Ushniksu Iti Rupa. So that is all about Hakara, the special karyas with Hakaranta Strilinga. If there are other Hakaranta Strilingas, say for example, Lih itself can be a Strilinga. Lih, Ledhi is the derivation. He, whoever who licks, Kartarikvi Pratyaya. So it can either be Pullinga or Strilinga or Napumsakalinga. So the forms will not differ. So the conclusion is only that wherever he shows something special, the Karya will differ. In all other cases, we assume that the forms will be like those in Pullinga. Lit, lid, lihau, lihaha, ityanini rupani, sarveshu lingeshu samanani. Next, moving on to the next letter of the alphabet, vakara. So, vakarantaha, strilingaha, tatra, div, shabdaha, sti. Akashaha, ityasthaha, div, shabdasya. Jyodivau dve striyam abhram vyoma pushkaram ambaram itty amara koshe asti. Jyodivau dve striyam itty avuktam amana karena. So div is a nitya strilinga word. In pullingas we derive something called sudiv, which is a derivation to just to show the form in pullinga. So the actual word is strilinga. There is nothing special here. There is nothing special to strilingas. But he still reminds us of what happened in Pullinga. Kim kaha visheshaha divashabdasya divashabdata suprate krate kaha visheshaha. Do you remember? There are two sutras which deal specifically with divashabda. There are two sutras. Diva aut iti ekam sutram, diva ut iti aparam sutram. Diva aut iti sutram, supratyaye pare bhavati. Supratyaye pare diva shabdasya aukaraha antaresha bhavati. So the vakara is replaced by au. Vi au su. Ikvenati iti nena nena deshe kate. Dyau, su, भवति ऋत्वं ससजुषो रुः इत्यनेन ऋत्वे सर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गे द्यौः इति रूपम् वकारस्य अन्तादेशः औकारः यणादेशः ऋत्वविसर्गौ द्यौः दिवौ दिवः औका अदादिषु प्रत्ययेषु कार्यं नास्ति द्यौः दिवौ दिवः दिवं दिवौ दिवः दिवा द्युभ्याम् इति रूपम् पदान्ते दिव उत् इति सूत्रेण दिवः अन्तादेशः उकारः विधीयते सः दि उ भ्याम् इकोणति इत्यनेन एणादेशे कृते द्युभ्याम् दिवा द्युभ्याम् द्युभिः दिवे द्युभ्याम् द्युभ्यः दिवः द्युभ्याम् द्युभ्यः दिवः दिवोः दिवाम् दिवि दिवोः द्युषु तत्रापि भवति दिव् सु स्थिते उकारादेशः द्यु आदेशप्रत्ययोः इत्यनेन शब्दे द्युषु इति रूपम् सूत्रे यणि शब्दम् दिवौत् इकोणसि अण्ड् आदेशप्रत्ययोः अप्लै सो दट् इस् आल् अबौट् वकारान्त स्त्रीलिङ्ग सो दीक्षित जस्ट् ट्रै टु रिमैण्ड् यू of the special rules that are associated with div shabda specifically. Ha, ya, varat, hakarantaha, adhitaha, yakaranta shabdaha, na santi, vakarantaha, div shabdaha, adhitaha, rephantaha, strilingaha, gir shabdaha, sti. Prasiddha shabdaha, Ramhitu Bharati, bhasha, गीर् वाग्वाणी सरस्वती गीः नाम वाक् इत्यर्थः भाषा वाणी इत्यर्थः गिर् शब्दः सुप्रत्यये कृते हल्याभ्यो दीर्घात् तस्य प्रत्तम् हल् इत्यनेन सुप्रत्ययस्य लोपः रुवोरुपधाया दीर्घ एकः इति सूत्रम् So to keep reminding yourself of sutras which you studied a long time ago, ravohu upadhayah, rephavantasya dhatohu upadhayah dirghasyat. So if there is a dhatu, this is ending in repha or vakara, ravohu, rephantasya dhatohu, vakarantasya dhatohu. So gir is not a dhatu by itself, gr nigarane iti rukarantah dhatuhu. तस्य ऋत धातोः इत्यनेन इत्थं विधीयते ऋ इस् रिप्लेस्ड् बै इ पुरण्डपरः इत्यनेन तस्य रपरत्रे गिर् इति भवति तथापि अयं धातोरेव अवयवः इत्यनेन धातुत्वम् अस्ति सो दिस् इस् स्टिल् अ धातु अण्ड् रेफा इस् अ पार्ट् आफ् द धातु सो द उपधा आफ् द धातु आफ् द रेफान्त धातु विल् गेट् दीर्घ झलिपदान्ते अत्र पदान्तत्वम् अस्ति इत्यतः पदान्ते उपधा दीर्घः सो बिकम्स् गीर् खरसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गे गीः इति प्रथमा एकवचने रूपम् गीः गिरौ गिरः अत्र तु दीर्घः न भवति नीदर् झल् नार् पदान्त सो अत्र दीर्घः नास्ति यत्र पदान्तत्वं तत्रैव दीर्घः गीः गिरौ गिरः गिरं गिरौ गिरः गिरा गीर्भ्याम् गीर्भिः तत्रापि गिर्भ्याम् इति स्थले पदान्तत्वम् अस्ति इत्यतः उपधादीर्घः भवति गिरा गीर्भ्याम् गीर्भिः गिरे गीर्भ्याम् गीर्भ्यः गिरः गीर्भ्याम् गीर्भ्यः गिरः गिरोः गिराम् गिरि गिरोः गीर्षु इति रूपं दत्तम् गिर् सु इत्यस्ति सर्वोरुपधायाः दीर्घः इत्यनेन दीर्घः आदेशप्रत्ययोः इत्यनेन षत्वम् गीर्षु इति रूपम् गीर् सु इत्यस्ति अग्रे खर् वर्णः अस्ति सकारः खर् वर्णः खर्वसानयोर्विसर्जनीयः इति विसर्गः भवेत् कुतो न भवति why are we not applying Harvasanayo Visarjaniya here? Question here, Gir Su Itrasti, just like we did in Gihi, Tatra Tu, Kim Bhavati, Avasana Masti. It is at the Avasana and therefore we applied Kharavasana Yoga Sarjaniya. Tatra Kharvarna Asti, Kimartham, Resardaha Nakrataha. Anybody remembers? You studied this, I mean, come across this in Repanta Pullinga. You have Chaturshu, where there is no Visarga. There is a Niyama Sutra. It says Rohu Supi. Right. Padmavami and Ravichandanji got it right. Rohu Supi iti Sutramati Niyama Sutram. It immediately follows Kharavasanayo Visarjaniyaha. Kharavasanayo Visarjaniyaha is 8.3.15. Immediately follows. There is a Niyama Sutra which is Rohu Supi. So, if you remember, Niyama Sutra is one which limits the application of a Vidhi Sutra to certain cases. So, it says, Supi Pare Yadi Rephasya Visargaha. If a Repha has to be converted to Visarga when followed by Sup, then Roho, the Visarga will occur only if it is Ru. That is, the Repha is derived from Rutva. Sasajusho Ruhu ityanena yad Rutvam vidhiyate tasya yaha Repha tasyaiva visargaha bhavati supipare matu anya Rephasya. So as I told already, you have to look at the derivation of the Shabda. Gir Shabdaha katham nishpannaha gr nigarane iti dhatuhu tata rukarasya ruta iddhatohu iti sutrena Itvam bhavati uran raparaha ittenena raparatvam ir iti bhavati gr iti rukarasya sthane ir sthite gir. So here the repha is directly derived as a repha. Raparatvena nishpannaha repha natu rutvena nishpannaha. Yaha repha rutvena nishpannaha tasyaiva visargaha bhavati natu anya rephasya iti uktatvata atra Rephasya Visarjaniyaha na bhavati Girshu itseva rupam. Evam Puhu Rephantaha Strilingaha Pur Shabdaha Asti Puhu Purau Puraha Nagari ityathe Pur Shabdaha. So the Prakriya is similar. You have, instead of Gir, you have Pur. Tatrapi Rgorapathayaha Dirkhaikaha Ityanena Dirkhaha Bhavati Puhu Purau Puraha Puram Purau Puraha Pura Purbhyam Purbhi Ityadi Nirupani. It will be exactly similar to Gir Shabda. Agrimaha Rephantaha Shabdaha Chatur Shabdaha Rephantaha Strilingaha Chatur Shabdaha. The number 4 Chaturaha Satasradeshaha. So the word Chatur is replaced by Satasri. What happens to Chatur Shabda in Pullinga? What is the form and what is the karya? Remember? Chatur Shabdasya Pullinge Kim Rupam Kim Karyam. What is the Pullinga word for the number 4? not the Pratipadika. Prathamaya Bhaktav Kim Rupam Bhavati Chatur Shabdasya. If you want to say four boys, Katham Uchyate. चतस्रह इति स्त्रीलिंगे चतस्रह बालिकाः बालकाः इति यदि उच्यते किं रूपम् दिस् इस् नाट् अ व्याकरण क्वेश्चन् सिम्पल् प्रयोग सो इवन् इफ् यु हेव् नाट् अटेण्डेड् द क्लास् यु विल् बी एबल् टु टेल् द रूप किं रूपम् चत्वारः इति रूपं चत्वारः चतस्रः चत्वारि सो द नम्बर् आल् वर्ड्स् विच् इण्डिकेट् न्यूमरल्स् द फस्ट् फोर् डिफर् इन् लिङ्गस् एकः एका एकं द्वौ द्वे द्वे त्रयः तिस्रः त्रीणि चत्वारः चतस्रः चत्वारि फ्रम् पञ्च दे आर् आल् द सेम् पञ्च 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 पञ्चबालकाः पञ्चबालिकाः पञ्चफलानि रैट् सो इट्स् अ वेरि बेसिक् जनरल् नालेज् आफ् प्रयोगस् विच् यु शुड् नेवर् फर्गेट् इन् संस्कृत रैट् सो नौ द वर्ड् चतुर् हेज् अ डिफरेन्स् इन् जेण्डर् पुल्लिङ्गे भिन्नं रूपं स्त्रीलिङ्गे भिन्नं रूपम् अत एव इदानीं स्त्रीलिङ्गस्य रूपं दर्शयितुं प्रवृत्ताः दीक्षिताः पुल्लिङ्गे किं रूपं चत्वारः इति रूपं नित्यं बहुवचनान्तशब्दः चतुर् इत्यस्मात् जस् प्रत्ययः कथं चत्वारः इति कथं निष्पद्यते हौ डु यु डिरैव् चत्वारः फ्रम् चतुर् किं कार्यं विशिष्टं कार्यं चतुर्शब्दस्य This is from the Kaumudi. If you have attended the previous classes, you should be able to remember. Kim karyam chatur shabdasya chatur ranaduhor aam udattaha iti sutram. It gets aam agama. Chatur ityatra aam agamaha bhavati saranasthane pare. So kutra bhavati मिदशोऽन्त्यात् परः अन्त्यादतः परः चतु आर् अस् यणादेशे कृते चत्वारस् रुद्रे विसर्गे चत्वारः इति रूपम् स्पेशल् कार्यतो चतुरानुहोर् आमुदात्तः एण्ड् देर् इस् अ स्पेशल् आदेश वित् इस् त्रिचतुरोः स्त्रियां तिसृचकस्त्र द वर्ड् त्री एण्ड् द वर्ड् चतुर् इन् स्त्रीलिङ्ग दे आर् रिप्लेस् बै तिसृ एण्ड् चतस्त्र सो यु हेव् टु कान्फ्लिक्टिङ्ग् आदेशस् हियर् अत्र इदानीं चतुर्शब्दस्य स्त्रीलिङ्गे जस् प्रत्यये किं करणीयम् आमागमः करणीयः वा चतस्रादेशः करणीयः वा इति प्रश्नः विप्रतिषेधे परं कार्यम् आमागमः विहितः सप्तमाध्यायस्य प्रथमपादस्थेन सूत्रेण चतस्रादेशः द्वितीयपादे अस्ति अतः परत्वात् चतस्रादेशः चतस्र चतुर्शब्दस्य चतस्र इति आदेशः क्रियते चतुर्शब्दः नित्यं बहुवचनान्तः सो यः चतस्र जस् प्रत्ययः चतुर् अस् इति स्थिते त्रिचतुरोः स्त्रियां तिसु चतस्र इत्यनेन चतस्रादेशे चतस्र अस् इकोयणसि इत्यनेन यणादेशे चतस्रस् ऋत्वे विसर्गे चतस्रः इति रूपम् पुनः षट् प्रत्यये अपि चतस्रः इत्येव रूपम् चतस्रः चतस्रः चतस्रभिः चतस्रभ्यः चतस्रभ्यः तृतीया चतुर्थी पञ्चमी षष्ठी बहुवचने किं भवति सतस्र आम इत्यस्ति किं भवेत् नुडागमः भवति केन सूत्रेण नुडागमः आम प्रत्ययस्य नुट इति आगमः भवति किं सूत्रम् One of the earliest sutras you studied, right from Rama Shabda, we are having the sutra. Nami. Nami is not a sutra which gives Nudagama. Nami pare, after Nudagama, we apply Nami. Where do you get that Nakara from? Yes, Mutarachi. सत्यम् ह्रस्व नद्यापो नटति ह्रस्वान्तात् नद्यन्तात् आवन्ताच्च परस्य आमः नुडागमः स्यात् रामशब्दे राम आम् इति स्थिते नुडागमः कृतः हियर् ह्रस्वान्तः चतस्र इति ह्रस्वान्तः ह्रस्वान्तात् परस्य आमः नुडागमः क्रियते चतस्र नु आम् इदानीं किं करणीयम् नामि इत्यनेन दीर्घः करणीयः रामाणाम् पितॄणां मातॄणां सर्वत्र दीर्घः श्रूयते किन्तु नामि इति दीर्घे प्राप्ते न तिसृचतस्र इति दीर्घनिषेधः तिसृशब्दस्य चतस्रशब्दस्य च नामि परे दीर्घः न भवति इति उच्यते अतः दीर्घः नास्ति णत्वं तु भवति चतस्र नाम केन णत्वं केन सूत्रेण णत्वं भवति चतस्र नाम इति उच्यते णत्वं केन सरलम् आदेशप्रत्ययोः इत्यनेन किं विधीयते षत्वं विधीयते षत्वविधायकं सूत्रं णत्वविधायकं किं शास्त्रम् सूत्र फॉर णत्व इज जनरली त्रिशाभ्याम नुण समान पदे एंड अटकुपांगम व्यवायति किंतु अत्र वेभा नास्ति रवर्णान नस्य णत्वं वाच्यम् इति वार्तिकम् इज अ वार्तिक व्हिच गिव्स णत्व फॉर व्हेनेवर देयर इज ऋकार सो तेन णत्वे कृते चतस्रणाम् इति रूपम् सो Dikshita gives the form in Kaumudi. He does not give all the Chatasrabhihi etc. He gives Chatasraha and he directly tells Chatasrana. Whenever Dikshita gives the form, there is some thinking to be done. Satra Bahavaha Vishayahatanti. Nudagama Hasti, Dirghanishedha Hasti, Ratvam Hasti, Chatasrana. Saptami Bahuvachane, Chatasrushu. Hirupam. So, that is Chatur Shabdaha, Rephantaha. Srilinga. So that we stop today's class with this. We dealt with Hakaranta, Vakaranta and Rebhanta Srilinga. We'll continue tomorrow, same time. Any questions? धन्यवादाः